अन्नपूर्णे सदा पूर्णे वैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वती स्वदेशो भुवनत्रयम्
स्वदेशो भुवनत्रयम्
स्वदेशो